पर्यगाच्छुक्रमकायं व्रणं स्नावीरं शुद्धं पापविद्वं कविर्मनीषी परिहूह स्वयंभूयथि तथ्यतोऽर्थान् व्यदधाच्छाश्वतिभ्यः समाभ्यः अन्धं तमः प्रविशन्ति ये अविद्यामुपासते ततो भूय इव ते तमो य उविद्यां रताः अन्यदेवाहुर्विद्याया अन्यदाहुर्विद्यया इति शुश्रूधीराणां ये नस्तद्विचक्षिरे विद्यां चाविद्यां च यस्तद्वेदोभयं सः अविद्यया मृत्युं त्रित्वा विद्यामृतं श्नुते अन्धं तमः प्रविशन्ति ये असम्भूतिम् उपासते ततो भूय इव ते तमो य उ सम्भूत्यां रताः अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् इति सुश्रुमधीराणां ये नस्तद्विचचच्छिरे सम्भूतिं च विनाशं च यस्तद्वेदोभयं सः विनाशेन मृत्यु तीर्त्वा सम्भूत्यमृतं श्नुते हिरण्यमयेन पात्रेण सत्यस्य पिहितं मुखं तत्त्वं पूषन्न पावृणु सत्यधर्माय दृष्टये पूषन्नेकरस्ये यमसूर्य प्रजापत्य व्यूहरश्मीन समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि यो असावसौ पुरुषः सो अहम् अस्मि वायुः अनिलम् अमृतम् अथेदम् भस्मान्तं शरीरम् ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर अग्नेनय सुपथाराये अस्मान् विश्वानि देव वायुनानि विद्वान् युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम इति चत्वारिंशोऽध्यायः